इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका ऋचा झा। अथ वार्ताः। केन्द्रीयान्वेषणाभिकरणेन अस्य वर्षस्य राष्ट्रिय पात्रता सह प्रवेश परीक्षा नीट यूजी इत्यस्याः आयोजने प्रश्नपत्रम् अनधिकृतरीत्या बहिरागमन विषयमालक्ष्य प्रकरणं पञ्जीकृतम्। शिक्षामन्त्रालयस्य उच्च शिक्षा विभागात् प्राप्तस्य लिखित परिवादस्य आधारे संस्थया एतत् प्रकरणं पञ्जीकृतम्। संस्थया संसूचितं यत् विशेषाणां केन्द्रीयावेषणाभिकरणदलानां निर्माणं जातं तथा प्रकरणम् अन्वेषणार्थं विभिन्नेषु स्थानेषु एतानि दलानि प्रेषितानि सन्ति। एषा नीट परीक्षा अस्य मासस्य तृतीय दिनांके राष्ट्रिय परीक्षण संस्थया आयोजिता आसीत्। नवदिल्ल्यां नीट परीक्षायाः निरस्तीकरण विषये वार्ताहर सम्मेलनं सम्बोधयन् राष्ट्रिय परीक्षण संस्थायाः महानिदेशकः अभिषेक सिंहः अवदत् यत् राष्ट्रिय परीक्षण संस्था छात्रेभ्यः पुनः परीक्षाम् आयोजयिष्यति, सा च परीक्षा निष्पक्षरूपेण भविष्यति, पुनः परीक्षायै अतिरिक्त शुल्कं न भविष्यति इति। भारतं श्वः आरभ्य ब्रिक्स विदेशमन्त्रिणाम् उपवेशनस्य आतिथ्यं करिष्यति। अद्य उपवेशनस्य अध्यक्षतां विदेशमन्त्री डॉ एस जयशंकरः करिष्यति। नवदिल्ल्यां वार्ताहरान् संसूचयन् विदेशमन्त्रालयस्य प्रवक्ता रणधीर जायसवालः उक्तवान् यत् उपवेशनावधौ ब्रिक्स सदस्य देशानां विदेशमन्त्रिणः पारस्परिकहितस्य वैश्विक क्षेत्रीय विषयेषु विचार विनिमयं करिष्यन्तीति। लोकसभाध्यक्षस्य ओम बिरला वर्यस्य नेतृत्वे एकं उच्चस्तरीयं भारतीय संसदीय प्रतिनिधिमण्डलं भारत भूटान संबंधान सुदृढीकरणोद्देश्येन सह अद्य भूटानस्य यात्रां करिष्यति। एकपञ्चाशत् सदस्याः भूटान भारत सम्बन्धानां विभिन्नेषु विषयेषु उभययोः प्रतिवेशिदेशयोः मध्ये सहयोगं संवर्धयितुं च चर्चां करिष्यन्ति इति अपेक्षा अस्ति। यात्रावधौ प्रतिनिधयः भूटान देशस्य राज्ञा तत्रत्य प्रधानमन्त्रिणा च सह मेलनं करिष्यन्ति। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः राज्यस्य जनान् प्रधानमन्त्रिणः नरेन्द्र मोदिनः आह्वानं व्यावहारिक रूपेण प्रवर्तयितुं प्रार्थयत्। अनेन नागरिकेभ्यः इन्धनस्य उपभोगं न्यूनीकर्तुं अनावश्यकं स्वर्णक्रयणं परिहर्तुं च आग्रहः कृतः। मुख्यमंत्री योगी आदित्यनाथः निर्देशं प्रदत्तवान् यत् मुख्यमंत्रिणः मन्त्रिणाम् अन्ये च जनानां संख्या तत्क्षणमेव 50% यावत् न्यूनीकर्तव्यमिति। असौ प्रार्थयत् यत् राज्ये गृहात् कार्यं कुर्वन्तु इति। महिलानां सुरक्षायै संस्थागत समन्वयं सुदृढीकर्तुं राष्ट्रिय महिला योगेन दिल्ली आरक्षकैः सह एकम् उच्चस्तरीयं समीक्षोपवेशनम् आयोजितम्। उपवेशनावधौ राष्ट्रिय महिलायोगस्य अध्यक्षा विजया राहतकर इत्येषा समन्वितस्य पीडित केन्द्रितस्य च दृष्टेः आवश्यकतायै बलं प्रदत्तवती। एषा अवदत् यत् महिलाभ्यः समयोचित समर्थनं न्यायं च सुनिश्चेतुं गृहहिंसा अधिनियमस्य अन्तर्गतम् आरक्षकयन्त्रस्य सुरक्षाधिकारिणाञ्च मध्ये प्रभावी सम्पर्कः आवश्यकः अस्ति। अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड ट्रम्प अद्य चीनदेशस्य त्रिदिवसीय यात्रायै बीजिंग नगरं सम्प्राप्स्यति। डोनाल्ड ट्रम्प इत्यस्य चीनदेशस्य राष्ट्रपतेः शी जिनपिंग इत्यस्य च मध्ये बहुप्रतीक्षिते उपवेशने द्विपाक्षिक सम्बन्धानाम् अनेकेषु विषयेषु चर्चा भविष्यति इति आशास्यते। आईपीएल इति क्रिकेट प्रतिस्पर्धायां ह्यः रात्रौ अहमदाबादस्य नरेन्द्र मोदी क्रीडांगणे गुजरात टाइटन्स दलेन सनराइजर्स हैदराबाद दलं 82 अंकैः पराजितम् इति वार्ताः।